अथ षडङ्गन्यासः। ॐ मनो जूतृजुपता मानस्य प्रियस्पतिर्जयमिमम् तनोर्वरिष्ठम् जज्ञपुम् समिमम् ददातु विश्वे देवास इह मादयन्तामोम् प्रतिष्ठा। ॐ हृदयाय नमः। ॐ अबोधिनिः संविधाजनानाम् प्रतिधेनुमिवायति मुखासम् जपा इव प्रवया मुजिहानाः प्रवानवः शिश्रदेनातमच्च। ॐ शिरसि स्वाहा। ॐ मूर्धानन्दिवो अरतिम् पृथिव्या वैश्वानरमृतः जातमग्निम् कविगुम् सम्राजमतिथिम् जनानामा सन्नापात्रम् जनयन्त देवाः। ॐ शिखाय वसट्। ॐ मर्माणि ते वर्मणा छादयामि सोम स्वाराजा मृतेनानुवसाम् गुरोर्वरीयो वरुणसे कृणोतु जयन्तम् त्वानुदेवामजन्तु। ॐ कवचाय हुम्। ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात सम्बाह्व्यान्धमति सम्पतत्रेढ्या वा भूमि जनयन्देव एका। ॐ नेत्रत्राय वोषट्। ॐ मानस्तो केतनये मान आयुति मानो गोको मानो अस्वेकुरीरिका मानो धीरानुद्रभामिनो वदीर्य विमन्तः सदमित्वा हवामहि। ॐ अस्त्राय फट्। ॐ झारे नित्यम् मयि संरजति गिर्निभम् चारुचन्द्रावतंसम् रत्नाकल्पोज्ज्वलाङ्गम् परशुदीर्घवराधीतिहस्तम् प्रसन्नम् पद्मासीनम् समन्तातिसुकुमरगणीर्जाग्रकीर्तिम् वसानम् विश्वाद्यम् विश्वन्द्यम् निखिलवयहरम् पञ्चवक्रम् त्रिनेत्रम् नमः पार्वतीपतये हर हर महादेव। अथ प्रथमोऽध्यायः। ॐ गणानाम् त्वा गणपतिगुम् भवामहि प्रियाणाम् त्वा प्रियपतिगुम् भवामहि निधीनाम् त्वा निधिपतिगुम् भवामहि वसो मम आहमजानि गर्वधमा त्वमजासि गर्वधम् मा गायत्री त्रिष्टु जगति अनुष्टु पञ्चासः बृहत्ष्णीहा तपुसूजीभिः संयन्तु त्वा द्विपदा सा सदुपदा स्त्रिपदा चाश्चपदाः विछन्दा चाश्चछन्दाः सूजीभिः संयन्तु त्वा तस्तोमाः सछन्दसा वृतः सा ब्रमारिकयः सप्त देव्याः पूर्वेकाम् पन्थामनुदृश्य धीरा अन्वालीभिरेरधियो नरस्मिन्न। ॐ जजाग्रतो दूरमुदेति दैवम् तदुसुप्तस्य तथैवेति दूरङ्गमञ्ज्योतिखाञ्ज्योतिरेकम् तन्मे मनः शिव सङ्कल्पमस्तु। येन कर्माण्यपसो मनीषिणो जये कृण्वन्ति विदधि उधीराः जदपूर्वम् क्षमन्तः प्रजानान्तन्मे मनः शिव सङ्कल्पमसु जत्प्रजानमुत चेतो धृतिसज्योतिरन्तरमृतम् प्रजासु जस्मानरिते किञ्चन कर्म क्रियते तन्मे मनः शिव सङ्कल्पमसु येनेदम् भूतम् भुवनम् भविष्यत्परिगृहीतम् मृतेन सर्वम् येन जज्ञस्तायते शब्दभूत तन्मे मनः शिव सङ्कल्पमसु यस्मिन् ऋजः सामजजो मुखे तस्मिन् प्रतिष्ठित रतनाभाविवारः यस्मिंश्चितगुम् सर्वमोतम् प्रजानान्तन्मे मनः शिव सङ्कल्पमसु सुहारतिरस्वानि वजन्मान्ध्यानि नीयते भीषु ग्रीवाजिन इवारिप्रतिष्ठम् जलधिरजविषन्तन्मे मनः शिव सङ्कल्पमस्तु।
अथ द्वितीयोऽध्यायः। ॐ सहस्रशीरिखा पुरुषः सहस्राक्षः सहस्रपाद स भूमिगुम् सर्वतः स्मृत्वा त्यतिष्ठदशाङ्गुलम् पुरुषै वेदगुम् सर्वम् जदभूतम् य च भाव्यम् मा उतामृततमसि सानो जदन्नेनातिरोहति एतावानस्य महिमातो जायास पूरुकः पादोऽस्य विश्व भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदयत्पुरुखः पादोऽसि हा भवत् पुनः ततो विभङ्गग्रामस
सनानसने अभि ततो विराट जायत विराजो अधिपूरुखः सजातो अध्यर्य तपस्सात् भूमिमथ पुरः तस्माद्या सर्वहुतः संभृतम् ऋगदाद्यमापसंसासकैवायव्या नारण्या ग्राम्याश्च तस्माद्या सर्वहुतरिचः सामानि जगनिरे छन्दांसि जगनिरे तस्माद्यजु तस्मादजायत तस्माद् स्वा अजायन्त जेकेचो वयादतः गावो हजगिरे तस्मात्तस्माजात अजावयः तम् दद्यम्बरिः किप्रोक्षन् उरुकम् जातमकृतः तेन देवा अयजन्त साध्य ऋकयसजेतत्पुरुकम् व्यददुः कतिल व्यकल्पयन्नामुखम् किम् स्यासि किम् बाहु किमूरुपाद उच्येते ब्राह्मणौ च मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य तद्व्यासूत्रो अजायत चन्द्रमा मनसो जातसक्षोः सूर्यो अजायत श्रोत्राद्वायुः स प्राणः समुख अग्निरजायत नाभ्या आसीदन्तरिक्षकम् श्रेष्णाद्योः समवृत तद्व्याम्भो मृदि सह श्रोत्रा तथा लोकान् अतल्पयन्नाजपुरुतेणाविक देवाजयमतन्वता वसन्तो स्यासि राज्यम् ग्रीक्मजमः शरदविः सप्तास्यासन् परिदयत्रिः शप्तसमिधः कृताः देवाजयन्तन्वान अवदनन् पुरुकम् पशुम् जगनेन जयमयजन्त देवास्मानि धर्माणि प्रथम न्यासन्नातिहनाकम् महिमानः सचन्त यत्र पूर्वे शाद्याः सन्ति देवाः अद्व्यः संहृतः पृथव्यैरसा च विश्वकर्मणः समवृतता गृहीतस्य त्वष्ट विदद्रूपमेति तन्मृतस्य देव त्वम जानमग्ने भेदाहमेत पुरुकम् महन्तमादित्यवर्णन्तमसः परस्ताता तमेव विदित्वा किमृत्युमेति नान्यः पन्था विद्यतीयनाय प्रजापतिसरति गर्वे अन्तर्जायमानो बहुधा विजायते तस्य जोनिम् परिपश्यन्ति धीरा तस्मिन्नास्त्रुवनानि विश्व ज्योतिवेद्य आतपतिजो देवानाम् पुरोहितः पूर्वो जो देवेभ्यो जातो नमो रुचाय ब्राह्मये रुचम् ब्राह्मण् जनयन्तो देव अग्रे तद्ब्रुवन्नादस्वैवम् ब्राह्मणो विद्यातस्य देवा असन्वसे श्रीसते लक्ष्मी सपत्न्याम् बहोरात्रे पार्श्वे नक्षत्राणि रूपमस्विनो व्यातम् मा इष्णन्निखाण ॐ इखाण सर्वलोकम् महिखाण हरि ओम् मा अथ तृतीयोऽध्यायः ॐ आसुः शिशानो भृगवो न भीमो घनघनः चोपणसर्खणीनाम् सङ्क्रन्दनो निमिकैकवीरः सततुम् सेना अजयत्साकमिन्द्रः सङ्क्रन्दनेन निमिखेण जिष्णुना चित्कारेण ऋषवनेन जिष्णुना तदिन्द्रेण जयत तसत्वम् जुदो नर इकुहस्तेन वृष्णा स इकुहस्तेः स निखङ्गि ब्रवसि सकुम् सृष्टा सयुध इन्द्रो गणेन सकुम् सृष्टादि सोमप वाहु सृदादि प्रतन्वा प्रतीता विरस बृहस्पति परिदीयारथेन रक्षोहा मित्रा अपवादमानः प्रवञ्चन् सेनाः प्रमिणो जुधा जयन्नस्माकमेत्य वितारथा नामा बलविज्ञायस्त वीरः प्रवीरः सस्मान्वादी सहमान उग्रः अभिवीरो अभिसद्वासो जैत्रमिन्द्ररथमातिष्ठ गोविता गोत्रविदम् गोविदम् वज्रबाहु जयन्तमज्म प्रमिणन्त मोजस इमगुम् स जाता अनुवीराय त्वमिन्द्रगुम् सखायो अनुसगुम् रमध्वम् अभिगोत्राणि सहसा गामानोदयो
वीरः सतमन्युरिन्द्रः सुशवनः पृतनाकारयोऽस्माकं सेन अवतु प्रयत्सु इन्द्र आसां नीत प्रियस्पतिर्दक्षिणा जजः पुरयेतु सोमः देवसेनानाम् अविवञ्जतीनां जयन्तीनां मरुतो जन्त्वग्रह्म इन्द्रस्य विष्णो वरुणस्य राजा आदित्यानां मरुतरुं सृतौ ब्रह्मा महामनसा भुवन जवानां गोको देवानां जयतामुदसात उदरिकय मघवन्नाजुदान् सत्त्वानां मामकानामनांसि उग्रभृतहन्वाजिनां वाजिनानुग्रथानां जयतां जन्तु गोखाः अस्माकमिन्द्रः समृते कुद्वजे कस्माकं जायिकवसा जयन्तु अस्माकं वीरा उतरे भवन्त्वस्मा उदेवा अवताः वेहु अमेकां चितं प्रति लोभयन्ति गृहाणा धान्यपि परे अविप्रेहि नृदः ऋत्सु सौकेरन्धेन मित्रास्तमसः सचन्ताम् अवसृषा परापत सर्वे ब्रह्म सगुंसिते गचा मित्रा प्रपद स्वमामेकां कञ्चनोचिकः प्रेता जयता नर इन्द्रो वा सर्मजचतु उग्रावः सन्तु बाहवो नाग्रिया जता सत असोजासेना मरुतः परेकामवेति न ओजसा स्पर्धमान ताङ्गुहत तमसा पवर्तेन जथानि अन्यो अन्यन्न जानन्न जत्रमाणाः सम्पतन्ति कुमाराभिषिका इवातन्न इन्द्रो प्रियस्पतिरदितिः सर्मजचतु विश्वाः सर्मजचतु मर्माणि ते वर्मणा च दयामिषो मत्वा राजा मृतेन नुवस्ताम् उरोर्वरीयो वरुणसे किणोतु जयन्तं त्वा नुदेवा मदन्तु
अथ चतुर्थोऽध्यायः ॐ विभ्राट् बृहद्विवतु सौम्यम् मर्वायुर्दधदज्ञपतावाभिहृतम् वातजूतोजो अविरक्षति मना प्रजाः उपोकपुरुधाभिराजति उर्दियम् जातवेदसन्देवम् महन्ति केतवः ऋषे विश्वाय सूर्यम् येनापावकचक्षसा भुरण्यन्तजना अनुपम् वरुण पश्यसि दैव्या वधवर्जु आपतगुम् रतेन सूर्य त्वच मधुवाचियगुम् समञ्जाते यम् प्रणतायम् येन चित्रम् देवानाम् तम् प्रणता पूर्वथ विश्वते मता ज्येष्ठता तिम्बरिकदगुम् सर्विदम् मा प्रतीचीनम् मृजन दोऽसि धुनिमासु जयन्तमनुजासु वर्धसे अयम् वेन चोदकृष्णिगर्वा ज्योतिर्जरायुरजसो विमाने इममपाकुम् सङ्गमे सूर्यस्य शिशुम् न विप्रा मतिभिरिहन्ति चित्रम् देवानामुदक धनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राजाव पृथिवी अन्तरिक्षकम् सूर्य आत्मा जगतस्तस्तुकश्च आन इडा ब्रुविदते सुस्वस्ति विश्वानरः सविता देव एतु अपि जथा दुवानो मत्सथानो विश्वम् जगदपि पित्वे मनीखा जगद्यकच विद्रहानुदगा अभिसूर्यः सर्वन्तदिन्द्रदेवसे करणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वम आशिरोचनम् मात सूर्यस्य देवत्वन्तन्महि त्वम् मर्यातटोर्वितगुम् सञ्जवार जदेदयुक्ता हरितः सदस्थादात्रात्रीवासस्तनुते सीमस्मे तन्मित्रस्य वरुणस्य विचक्षे सूर्योरूपम् कृणुते योरुपस्थे अनन्तमन्यदृशदस्य पाजः कृष्णमन्यधरितः सम्भरन्ति बलमः असि सूर्यबड द्वितीयमः असि महते सतो महिमापन्यस्य तेधा देवमः असि वटसूर्यसर्वसामः असि सत्रा देवमः असि मह्ना देवानां सूर्यः पुरोहितो विभुजोतिरदाभ्यम्
ब्रह्म स्रायन्त इव सूर्या विश्वेदिन्द्रस्य वक्षता वसूनी जाते जनमान ओजसा प्रतिभागम् नदी धिमा अद्यादेव उदिता सूर्यस्य निरभंसः विपरीता निरवद्यात तन्नो मित्रो वरुणो मा महन्तमदिति सिन्धुः पृथिवी उत द्योः आक्ष्णेन रजसा व्रतमानौ निवेशयत् नमृतम् रत्यम् च हिरण्येन सविता रथेन देवो जाति भुवनानि पश्यन्ना अथ पञ्चमोऽध्यायः ॐ भू ॐ भुव ॐ स्वा ॐ नमस्ते रुद्रमन्यव उतोत इखवे नमः वाव्यामुत ते नमः जाते रुद्रशिवा तनूरघोरा पापकासिनि दयान सन्वा सन्तमया गिरिसन्त इचाकसीः जामिखुम् गिरिसन्तास्ते विवर्चस वै शिवाङ्गिरित्रिताङ्कुरुमाही पुंसीः उरुखम् जगता शिवेन वचसा त्वा गिरिसा च वदामसि यथा नः सर्वविजगद यस्मपुंसुमना असता अद्यवोच दधिवता प्रथमो देव्यो विकता अहिश्च सर्वाञ्जम् भयन् सर्वांस्तदातु धान्यो परासु वा असौ जस्ताम्रो अरुणौ तपग्रो सुमङ्गलः जेचेन गुंरुद्रा अपितो दिक्षुसृताः सहस्रसो वैका क्रीडयीमहि असौजो वस्रवति नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदाहार्जः दृष्टो मिडयाति नः नमोऽस्तु नीलग्रीवाय सहस्राक्ष यमीडुखे अथो जे अस्य सत्त्वानो हन्ति ्योकरम् नमः प्रभुञ्च धन्वनसमुभयोराज्ञोर्जाम्मा जासते हस्त इखवः पराता भगवोऽपाबीजम् धनुः कपर्दिनो विसल्यो माण्वा उत अन्ये सनस्य जा इखव आपुरस्य निकङ्गतिः जातेः त्रिमेटुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयस्मया परिभुजा परिते धन्वनो हेतिरस्मान् तृणतु विश्वतः अतो जयिपुरिसवारे अस्मिन्नदीतम् अवदत्य धनुषवगुम् सहस्राक्षते कुरि निशीर्षशल्याना मुखासिवो नः सुमना भव नमस्त आयुधाय नातृताय कृष्णवे उभाभ्याम् मुतते नमो भाव्याम् तव धन्वने मानो महन्तमुतमानो अर्वतम् मान उक्षन्तमुतमानुक्षितम् मानो वदिः पितरम् मोत मातरम् मानः प्रियास्तन्नो रुद्ररीरिखः मानस्तो केतनये मान आयुकिमानो गोकुमानो अस्वेकुरीरिखः मानो वीरान्द्रभामिनो वदीर्यभिमन्तः सदमित्वा हवामहे नमो हिरण्यबाहवे सेनानि दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सकिञ्जराय त्रिकिमते पतीनाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो बब्लुसाय व्याधिने नानाम् पतये नमो नमो भवसेते जगताम् पतये नमो नमो रुद्रायाततायिने क्षेत्राणाम् पतये नमो नमः सूताय हन्ति वनानाम् पतये नमो नमो रोहितायस्त पतये वृक्षाणाम् पतये नमो नमो भुवन्तय वायुस्कृतयोखदीनाम् पतये नमो नमो मन्त्रिणि वाणिजाय कक्षाणाम् पतये नमो नम उचैर्गोकाय क्रन्दयति पतीनाम् पतये नमो नमः कृष्णाय तय धावते सत्त्वानाम् पतये नमो नमः सहमानाय निप्याधिनाप्याधिनीनाम् पतये नमो नमो निखङ्गिणककुवायस्तेनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निखङ्गिण इपुरिमते तस्कराणाम् पतये नमो नमः श्रीकायिव्योजिका ोमुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तञ्चरद्भ्यो विवृन्तानाम् पतये नमः नम श्रीकिणे गिरिचराय कुरुञ्च पञ्चानां पतये नमो नमः
इकुमद्भ्यो धन्वायव्यसवो
नमो नमः आतन्वादिभ्यः प्रतिददाने व्यसवो नमो नमः आयसद्भ्यो सद्व्यसवो नमो नमो निसृजद्भ्यो विद्यद्व्यसवो नमो नमः स्वपद्भ्यो जाग्रद्व्यसवो नमो नमः शयानेभ्य आसीने व्यसवो नमो नमश्चिद्भ्यो धावद्व्यसवो नमो नमः
सवाभ्या सवापतिव्यसवो नमो नमो स्वेभ्यो स्वपतिव्यसवो नमो नम आभ्यादिनीभ्यो विव्यजन्ति व्यसवो नमो नम उणाविसृगुंहतिव्यसवो नमो नमो गणेभ्यो गणपतिव्यसवो नमो नमो व्रातेभ्यो व्रातपतिव्यसवो नमो नमो कृतेभ्यो कृतपतिव्यसवो नमो नमो विरूपेभ्यो विश्वरूपेभ्यसवो नमो नमः सेनाभ्यः सेनानि व्यसवो नमो नमो रथेभ्यो अरथेभ्यसवो नमो नमः शत्रुभ्यः संहृतिव्यसवो नमो नमो महद्भ्यो अर्वकेभ्यसवो नमः
नमस्तभ्यो रथकारेभ्यसवो नमो नमः तुलानेभ्यः कर्मारेभ्यसवो नमो नमो निकातेभ्यः कुजिष्ठेभ्यसवो नमो नमः स्वनिभ्यो मृगैभ्यसवो नमो नमः स्वव्यासपतिव्यसवो नमो नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च सितिकण्ठाय च नमः दिने च पिपुकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिरुविष्टाय च नमो मेडुष्टमाय चेकुमते च नमो अर्वाय च वामनाय च नमो प्रियते च वर्गीयसे च नमो वृताय च सवृते च नमो ज्ञाय च प्रथमाय च नमः आसवैचारिराय च नमः श्रीज्ञाय च सेव्याय च नमः ओर्म्याय च वसन्याय च नमो नादीयाय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च अपरजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च पुत्न्याय च नमः सोभ्याय च प्रतिसर्जाय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय च वसन्याय च नमः ऊर्जाय च कल्याय च नमो वन्याय च कक्षाय च नमः सर्वाय च प्रतिसर्वाय च नमः आसुकेणाय च सुरताय च नमः सूराय च वेदिने च नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूकिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमिषाय च नमो निकङ्गिणे चेकुदिमते नम तीक्ष्णे कवैचायुधिने च नमः स्वायुधाय सुगन्वने च नमः सुर्याय च पत्याय च नमो काट्याय च नीत्याय च नमः कुल्याय च सरस्याय च नमो नादीयाय च वैसन्ताय च नमः रूप्याय च वट्याय च नमो भीग्याय च तप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्ख्याय च वर्ख्याय च नमो व्याय च रेग्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः साङ्गवै च पशुपतये च नमो उग्राय च भीमाय च नमो ग्रीवदाय च दूरीवदाय च नमो अन्त्रे च आङ्गयसे च नमो केभ्यो हरिकेशेभ्यो नमस्ताराय नमः सम्भवाय च मयोभवाय च नमः शङ्कराय च महेश्वराय च नमः शिवाय च शिवतराय च नमः पार्थाय च वार्जाय च नमः प्रतरणाय चोतरणाय च नमो तीर्थ्याय च पुल्याय च नमः सत्याय च प्रेम्याय च नमः सिकत्याय च प्रवजाय च नमः किंसिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमः हिरण्याय च प्रवध्याय च नमो वर्ज्याय च कोष्ठ्याय च नमः कल्प्याय च गीज्याय च नमो इळ्याय च निवेक्याय च नमः काट्याय च गवरीष्ठ्याय च नमः सुस्क्याय च हरित्याय च नमः पांसव्याय च रस्याय च नमो लोप्याय च लप्याय च नमः ओर्याय च सूर्याय च नमः पर्णाय च पर्णसदाय च नमो उग्रमाणाय च विनते च नमः आकितते च प्रकितते च नमो कुकृतिभ्यो धनुष्कृतिव्यसवो नमो नमो वाकिकेभ्यो देवानां मुदेभ्यो नमो विचुनकेभ्यो नमो विक्षणकेभ्यो नमः आनिरतेभ्यद्रापयन्दस्वपते दरिद्रनीलोहित आसां प्रजानामेकां पशूनामाभिर्मारुमोचनाकिञ्चना ममतात्मा रुद्राय तवसैकपर्दिने जयद्वीराय प्रवरामहे मतिः यथा समसदुपदे चतुपदे विश्वं पृष्ठं ग्रामे अस्मिन्ननातुरं मा जाते रुद्रशिवा तनुः शिवा विश्वाभीकजे शिवा ऋतसभीकजे तयानो विडजीवसि परिणो रुद्रसे त्रिविणतु परित्वेकस दुर्मतिरघायो अवैस्तरामगुद्वस्तनुपाविडो सकाय तनयाय विडा विडुष्टम शिवतमो शिवो नः सुमनावो अपरमे विक्षमायुधाय निधाय कृतिवसानम् आचर पिनाकां विव्रदागै विकिरिन्द्रं विलोहितं नमस्ते अस्तु भगवः चास्ते सहस्रं एतयो नमस्वपन्तुतः सहस्राणि सहस्रसो बाहुस्तय एतयः तासामीशानो
भगवः पराजीना मुखाकृति असंख्याता सहस्राणि जे रुद्रादि भूम्यं मातेकां सहस्रयोजने वधन्मानि तन्मसी सन्मान्त्यर्णवे अन्तरिक्षे भवादितेकां सहस्रयोजने वधन्मानि तन्मसी नीलग्रीवासिति कण्ठादिवकुं रुद्रा उपसृताः तेकां सहस्रयोजने वधन्मानि तन्मसी नीलग्रीवासिति कण्ठाः सर्वाद्या चमाचरः तेकां सहस्रयोजने वधन्मानि तन्मसी देवृक्षे सक्विञ्जरा नीलग्रीवा विलोहिताः तेकां सहस्रयोजने वधन्मानि तन्मसि हे भूतानामधिपतयो विशिकासाः कपर्दिनः तेकां सहस्रयोजने वधन्मानि तन्मसि हे पतां प्रतिरक्षैर्वृदायुर्वृदः तेकां सहस्रयोजने वधन्मानि तन्मसि हे तीर्थानि प्रचरन्ति सृकास्तानि कङ्गिणः तेकां सहस्रयोजने वधन्मानि तन्मसि हे दिक् विविदन्ति पात्रे कुपिवतो जनानां तेकां सहस्रयोजने वधन्मानि तन्मसि जायेतावन्तस भूयांस सति सोरुद्रवितश्री तेकां सहस्रयोजने वधन्मानि तन्मसि नमोऽस्तु रुद्रेभ्यो जे दिवेकां वर्गमिकवः तेभ्यो दश प्राचीर्दश दक्षिणार्दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः तेभ्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ते जन्म दश नो द्वैति तमेकां जम्बे दद्मः नमोऽस्तु रुद्रेभ्यो जे अन्तरिक्षे जेकां मातैकवः तेभ्यो दश प्राचीर्दश दक्षिणार्दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः तेभ्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ते जन्मो दश नो द्वैति तमेकां जम्बे दद्मः नमोऽस्तु रुद्रेभ्यो जे पृथिव्यामेकां अन्नमिकवः तेभ्यो दश प्राचीर्दश दक्षिणादश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः तेभ्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ते जन्मो दश नो द्वैति तमेकां जम्बे दद्मः ॐ स्वः ॐ भुव ॐ भू अथ षष्ठोऽध्यायः ॐ वयवं सोमवर्तयितौ मनसनोकुविव्रतः प्रजावन्तः सचेमहि एकते रुद्रभागः सस्वाम्बिकया तञ्जुकस्मा एकते रुद्रभाग आपुस्ते पशुः अवरुद्रामतीमजदेवत्रं व्रतं यथा नो वसिष्करद्यथा नः श्रेयस्करद्यथा नो व्यवसायियाता एकजमसि वेकजङ्गवैश्वाय पुरुषाय वेकजं मा सुखं मेकाय मे केत्रं व्रतं यजामहि सुगन्धिं पुष्टिवर्धनं मा पुरुवारुकमिव वन्दनान् मृत्योर्मुखीय मामृतात ॐ त्र्यम्बकं यजामहि सुगन्धिं पतिवेदनं मा पुरुवारुकमिव वन्दनान्वितो मुखीय मामुतः तते रुद्रावसन्ते परो मुदवतो तीः अवततधन्वापिनाकावसः कृतिवासायुं सन्नः शिवोतीः त्रायुकं जमदनेः कस्य पश्य त्रायुकं मा जदेवी कुत्रायुकं तन्नौ असुत्रायुकं मा शिवो नामासि त्वदिति स्ते पिता नमस्ते अस्तु मामायि पुंसीः निवर्तयाम्यायुकेनाद्याय प्रजननाय रायस्मोकाय स्मृतास्वाय सुवीर्याय अथ सप्तमोऽध्यायः ॐ उग्रस भीम स ध्वान्त स ध्वनि स सहस्वांस विगुवाच विक्षिपः स्वाहा अग्निगुं हृदये नासनीगुं हृदयाग्रेण पशुपति कृष्णार्जेन भोजनाश्रमस्नाभ्यामीशानम् मन्युना महादेवमन्तः असवीनोग्रं देवं मनिषुनावसितः नो सिंहीनिकोश्याभ्यां माग्रं लोहितेन मित्रं सौवर्तेन रुद्रं दौर्वर्तेन नेत्रं परकीडेन मरुतो बलेन साध्यान् प्रमुद भवशकण्ठकुं रुद्रस्यान्तः पार्श्व्यां महादेवस्य कृषवस्य वनिष्ठो पशुपतेः पुरी तदा लोमभ्या स्वाहा त्वचि स्वाहा त्वचि स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा मागुंसेभ्यः स्वाहा मागुंसेभ्यः स्वाहा नावव्यः स्वाश्नावव्यः स्वास्तव्यः स्वास्तव्यः स्वाहा मव्यः स्वाहा मव्यः स्वाहा प्रीतसि स्वाहा पायवि स्वाहा आयासाय स्वाहा प्रयासाय स्वाहा सञ्जासाय स्वाहा व्यासाय स्वाहो व्यासाय स्वाहा शुचि स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा तपसि स्वाहा तपति स्वाहा तपमानाय स्वाहा तप्ताय स्वाहा धर्माय स्वाहा निष्कृते स्वाहा प्रयासिते स्वाहा वेगजाय स्वाहा यमाय स्वाहा य स्वाहा मृतवे स्वाहा ब्रह्मणि स्वाहा ब्रह्मत्यायि स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा ध्यावा पृथिव्यां स्वाहा अथ अष्टमोऽध्यायः ॐ वाच समे प्रसव समे व्यति समे प्रसीति समे धीति समे कर्तु समे स्वर समे श्लोक समे सर्व समे श्रुति समे ज्योति समे स्व समे जगेन कल्पन्ताम् प्राण समे पान समे व्यान समे सुसमे चितम् च आदितम् च मे वाच मे मन समे चतुसमे श्रोत्रम् च मे दश समे बलम् च मे जगेन कल्पन्ताम् महाभूज समे सहस्र महात्मा च मे तनु समे शर्म च मे वर्म च मे गानि च मे स्त्रीणि च मे परोगुणि च मे शरीराणि च आयुष मे जरा च मे जगेन कल्पन्ताम् महाज्येष्ठम् च महाधिपत्यम् च मे मनुष मे भाम समे मस मे वस मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्षिमा च मे दात्रिमा च मे वृतम् च मे वृति समे जगेन कल्पन्ताम् मा सत्यम् च मे सदा च मे जगम् च मे धनम् च मे विश्वम् च मे महस्य मे क्रीडा च मे मोद च मे जातम् च मे जनिकमाणम् च मे सुप्तम् च मे सुकृतम् च मे जगेन कल्पन्ताम् मा ऋतम् च मे मृतम् च मे यक्षम् च मे नामि च मे जीवातु च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सूपास मे सुदिनम् च मे जगेन कल्पन्ताम् मा दन्ता च मे धर्ता च मे क्षेम च मे धृति च मे विश्वम् च मे महस्य मे सन्धि च मे ज्ञात्रम् च मे सूच मे प्रसूच मे सीरम् च मे लय च मे जगेन कल्पन्ताम् मा सञ्च मे मयस मे प्रियम् च मे नुकामस मे कामस मे सोमनस मे भगस मे दर्विणम् च मे भद्रम् च मे श्रेयस मे वसीयस मे दशस मे जगेन कल्पन्ताम् मा ऊक्ष मे सूनृता च मे पयस मे रसस मे घृतम् च मे मधु च मे सकृ च मे सपीति च मे कृटि च मे वृटि च मे जयत्रम् च महोद्वीर्यम् च मे जगेन कल्पन्ताम् मा रयि च मे राय च मे पुष्टम् च मे पुष्टि च मे विभु च मे प्रभु च मे पूर्णम् च मे पूर्णतरम् च मे कुयवम् च मे चितम् च मे नम् च मे शुच मे जगेन कल्पन्ताम् मा वितम् च मे वेद्यम् च मे भूतम् च मे भविष्य च मे सुखम् च मे सुपत्यम् च मे ऋतम् च मरिति च मे कृलितम् च मे कृलिति च मे मति च मे सुमति च मे जगेन कल्पन्ताम् मा प्रियस्य मे जवास मे माकास मे तिलास मे मुदकास मे कल्वास मे पीडवस मे णवस मे श्यामाकास मे नीमारास मे गोधूमास मे मसूरास मे जगेन कल्पन्ताम् मा अस्मात् मे मृत्तिका च मे गियस्य मे पर्वतास मे सिकतास मे वनस्पतयस्य मे हिरण्यम् च मे जसस्य मे श्यामम् च मे लोहम् च मे सीसम् च मे त्रपु च मे जगेन कल्पन्ताम् मा अग्निसमापस्य मे बृहदस्य मोकदयस्य मे कृषिपत्यास मे कृषिपत्यास मे ग्राम्यास मे पशव आरण्यास मे गीतम् च मे गीति समे भूतम् च मे भूति समे जगेन कल्पन्ताम् मा वसु च मे वसति समे कर्म च मे सति समे अर्थ सम एम समे इत्याच मे गति समे जगेन कल्पन्ताम् मा अग्निसम इन्द्र समे सोम सम इन्द्र समे सविता च म इन्द्र समे सरस्वती च म इन्द्र समे भूपा च म इन्द्र समे बृहस्पती च म इन्द्र समे जगेन कल्पन्ताम् मा मित्र सम इन्द्र समे वरुण सम इन्द्र समे धाता च म इन्द्र समे त्वष्टा च म इन्द्र समे मरुत सम इन्द्र समे विश्वे च मे देवा इन्द्र समे जगेन कल्पन्ताम् मा पृथ्वी च म इन्द्र समे अन्तरिक्ष च म इन्द्र समे द्योत सम इन्द्र समे समा सम इन्द्र समे नक्षत्राणि च म इन्द्र समे दिश सम इन्द्र समे जगेन कल्पन्ताम् मा अभूषु समे रश्मि समे दाव्य समे धिपति समे उपागुंस मेन्द्रजाम समे इन्द्रवायव समे मैत्रावरुण समे आसिन समे प्रतिप्रतान समे शुक्र समे मन्ति च मे जगेन कल्पन्ताम् मा आग्रण समे वैश्वदेव समे ध्रुव समे वैश्वानर समे इन्द्राग्न समे महावैश्वदेव समे मत्वकीया समे निष्केवल्या समे सार्द्र समे सारस्वत समे पाक्निवत समे आर्योजन समे जगेन कल्पन्ताम् मा सुरुच समे तमसा समे वायव्यानि च मे द्रोणकल समे ग्रावण समे धीक्मणे च मे भूतभृतम् आदवनीया समे वेदि समे वखि समे वृत समे स्वदाकार समे जगेन कल्पन्ताम् मा अग्नि समे घर्म समे अर्घ समे सूर्य समे प्राण समे स्वमे दा समे पृथ्वी च मे दिति समे दिति समे द्योत समे कुलया सकरयो दिश समे जगेन कल्पन्ताम् मा ऋतम् च मरितव समे तप समे संवत्सर च मे होरात्रि उर्वष्टिवे बृहद्रथन्तरे च मे जगेन कल्पन्ताम् मा एका च मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च मे एकादश च मे एकादश च मे द्व्योदश च मे द्व्योदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च मे एकविंशति च मे एकविंशति च मे द्व्योविंशति च मे द्व्योविंशति च मे पञ्चविंशति च मे पञ्चविंशति च मे सप्तविंशति च मे सप्तविंशति च मे नवविंशति च मे नवविंशति च मे एकत्रिंश च मे एकत्रिंश च मे त्रयस्त्रिंश च मे जगेन कल्पन्ताम् मा चतुरस्त मेष्टौ च मेष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विंशति च मे विंशति च मे चतुर्विंशति च
समे चतुर्विंशति समे अष्टाविंशति समे अष्टाविंशति समे द्वात्रिंशति समे द्वात्रिंशति समे कर्तृविंशति समे कर्तृविंशति समे चत्वारिंशति समे चत्वारिंशति समे चतुश्चत्वारिंशति समे चतुश्चत्वारिंशति समे अष्टाचत्वारिंशति समे जिगेन कल्पन्ताम् त्रिविशमे त्रिवीचमे त्यवार्चमे द्वितीयोहिचमे पञ्चाविशमे पञ्चाविशमे त्रिवशमे त्रिवशाचमे त्रिजवार्चमे त्रिजोहिचमे जिगेन कल्पन्ताम् अष्टवार्चमे पुष्टोहिचमे उक्षाचमे वसाचमे ऋकवशमे विहचमे नडवाशमे धेनुशमे जिगेन कल्पन्ताम् वाजाय स्वाहा प्रसवाय स्वाहा बीजाय स्वाहा कृतवे स्वाहा वसवे स्वाहा अर्पतये स्वाहेनुमुदाय स्वाहा मुदाय विनगुंसिनाय स्वाहा विनगुंसिनाञ्चायनाय स्वाञ्चाय भुवनाय स्वाहा भुवनसपतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा दियन्ते राणि मित्रायन्तास्यमनावूते त्वाम् इष्टये त्वाम् प्रजानां त्वाधिपत्याय आयुर्जगेन कल्पन्ताम् प्राणो जगेन कल्पन्ताम् चक्षुर्जगेन कल्पन्ताम् श्रोत्रम् जगेन कल्पन्ताम् वाग्जगेन कल्पन्ताम् मनोजगेन कल्पन्ताम् आत्माजगेन कल्पन्ताम् ब्रह्माजगेन कल्पन्ताम् ज्योतिर्जगेन कल्पन्ताम् पुसृजगेन कल्पन्ताम् पिशं जगेन कल्पन्ताम् दिग्यो जगेन कल्पन्ताम् सोमस्य यजुसर्गच साम च विरचरसन्तरम् च स्वदेवा अगन्मामृता अमुम् प्रजापतेः प्रजामोऽपि स्वाहा अथ शान्त्यध्यायः ॐ ऋजम् वाचम् प्रपदे मनोजजुः प्रपदे साम प्राणम् प्रपदे चचुः श्रोत्रम् प्रपदे वाजोजः सहोजो मयि प्राणापान जन्मे शिरम् चक्षुतोर्जसमनसो वाति तृणम् ह्रियस्वतृणे दधातु सन्नो भवतु भुवनस जस्वतिः भूर्भुवस्वः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् कया नक्षत्र आभूवदूते सदा भृतः सखा कया सचिष्टया भृता कस्वा सत्यो मदा नामाभूमिष्टो मत्सदन्दसः दृढाचिदारुति वसु अविगुणः सखी नाम पिता दरिद्रणाम् मा सतम् भवा स्यूतिभिः कया त्वन्त्या विप्रमन्दसे विघना कया स्तोत्रिव्य आवरा इन्द्रो विश्वस्य राजति सन्नो असु विपदे सञ्चतुपदे सन्नो मित्रः संवरुणः सन्नो भवन्त्वजमा सन्न इन्द्रो बृहस्पतिः षण्णो विष्णुरुक्रमः सन्नो वातः पवतारुम् सन्नस्तपतु सूर्यः सन्नः कनिकद्देवः प्रजन्यो अभिवर्गतु महानि सम्भवन्तु नः सगुम् रात्रिः प्रतिधीयता मा सन्न इन्द्राग्नि भवता मौभिः सन्न इन्द्रा वरुणा रातव्य सन्न इन्द्रा पूकणा वाजसातु समिन्द्रा सोमम् सुविताय सञ्जोः सन्नो देविरविषयापो भवन्तु पीतये सञ्जो रविस्रवन्तु नः स्यो न पृथिविनो भवानक्षरा निवेशनी चानः सर्वसप्रताः आपो इष्टामयो भुवस्तान ऊर्जे ददातनामहीरणाय चक्षसेजो वः शिवतमो रसतस्य वाजयते हनः सतीरिव मातरः तस्मा अरङ्गमामवोचसि छयाय जिन्वता आपो जनयता च नः योः शान्तिरन्तरिक्षगुं शान्तिः पृथिवी शान्तिरापः शान्तिरोभदयः शान्तिः वनस्पतयः धात्रिविश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः वामा शान्तिरेधि धृते त्रिगुङ्गमा मित्रस्यामां चचुपा सर्वाणि भूतानि समीक्षन्ताम् मा मित्रस्या चचुपा सर्वाणि भूतानि समीक्षे मित्रस्या चचुपा समीक्षामहे धृते त्रिगुङ्गमा ज्योक्ते सन्दृशजिव्या संयोक्ते सन्दृशजिव्या सम्मा नमस्ते हरसे शौचिके नमस्ते अस्वचिके अन्यास्ते अस्मत्पन्तु हेतयः पावको अस्मव्यगुं शिवो भव नमस्ते अस्तु विदुते नमस्ते स्तनित्न वै नमस्ते भवनस्पयतः स्वासमीहसे यतो यतः समीहसे ततो नो अभयम् कुरु क्षन्नः कुरु प्रजाभ्यो भयन्नः पशुयः सुमित्र्या न आपोकदयः सन्तु दुर्मित्र्या तस्मै सन्तु जोऽस्मान् द्वेष्टिजम् जम् वयम् दुग्मः तच्छ्रुते वहितम् पुरसा चुक्रमुचरत असेम शरदः शतम् जीवेम शरदः शतम् शृणुयाम शरदः शतम् प्रभवाम शरदः शतमदीनाः स्याम शरदः शतम् भूयस शरदः सतात अथ स्वस्ति प्रार्थना मन्त्राः हरिः ॐ मा स्वस्ति न इन्द्रो बृहदसर्वाः स्वस्ति नः पूका विश्ववेदाः स्वस्ति नस्तारिक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ पयः पृथिव्याम् पय ओखदी कुपयो दिव्यन्तरिक्षे पयो दाः वयस्पतिः प्रदिशः सन्तु मजियम् ॐ विष्णोरराटमसि विष्णोः सनपुत्रे स्थो विष्णोः स्यूरसि विष्णो ध्रुवोऽसि वैष्णवमसि विष्णवे अग्निर्देवता वातो देवता सूर्यो देवता चंद्रमा देवता वसवो देवता रुद्रा देवता दिव्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ओम सद्यो जातं प्रवद्यामि सद्यो जाताय वे नमो नमः भवे भवे नाति भवे भवस्य मां भूर्भुवाय नमः ओम वाम देवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलरुद्राय नमः सर्वभूतमनाय नमो मनोन्मनाय नमः अभूरिभ्यो तभूरिभ्यो भोर्भोर्तरेभ्यः सर्वेभ्यः सर्वसर्पेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो मा ॐ शिवो नामासिस्वदिति से पिता नमस्ते अस्तु मामाहि पुंसीहि निवटयाम्यायुके नार्याय प्रजननाय राय स्वोकाय स्मृतास्वाय सुवीर्याय ॐ स्वानि देव सवितुर्दुरितानि परासुवाच वदरन्तर्न आसुवात् ओम द्योः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोपदयः शान्तिः वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः क्षामा शान्तिरेधि ओम सर्वेषाम् एकवेदानं रसोजस्साम सर्वेषामेवेतद्वेदानं रसेनाभिकिञ्चति ओम शान्तिः शान्तिः शान्तिः।